एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम्। प्रस्तोत्री रत्नावली शर्मा। सभामुखेन डोलप्रसाद आर्यालेन प्रतिनिधि सभायाः विभिन्नानां राजनीतिक दलानां मुख्य सचेतक पदीयैः सचेतक पदीयैश्च सह सदनं प्रभावपूर्णतया व्यवस्थिततया मर्यादित रूपेण च संचालयितुं ह्य विमृष्टमस्ति। विमर्शने श्रावण मासस्य चतुर्दश दिवसात् संचाल्यमानं प्रतिनिधि सभायाः उपवेशं प्रभावपूर्णं परिणामयुतं च विधातुं सर्वकारस्य पक्षतः पर्याप्त रूपेण कार्यसूचीं प्रस्तोतुं संसदः गरिमाणं मर्यादाञ्च स्थापयितुं च विमृष्टं वर्तते। संसदीय श्रवण समित्या ह्यो निर्वाचन आयोगस्य प्रस्तावितयोः आयुक्तयोः गुरूप्रसाद वाग्ले इत्यस्य डा राजीव सुब्बा इत्यस्य च पृथक् पृथक् श्रवणं विहितमस्ति। समितेः स्तनोपवेशे प्रस्तावितेन आयुक्तेन वाग्लेभिदेन निर्वाचनं स्वच्छं निष्पक्षं विश्वसनीयं च विधातुं सर्वै पक्षैस्सह समन्वयाय संवादाय च प्राथमिकता प्रदास्यते इत्युक्तमस्ति। एवमेव प्रस्तावितेन निर्वाचन आयुक्तेन डा सुब्बाभिदेन संविधानस्य विधेश पूर्णतः पालनां विधाय तथ्यस्य प्रमाणस्य विधेश शासनस्याधारेण निर्णयं विधाय अग्रे वर्धिष्यते इत्युक्तमस्ति। समित्या अद्य प्रमुख निर्वाचन आयुक्त पदे परामृष्टस्य मानबहादुर कार्किणः संसदीय श्रवणं करिष्यते इति समितेः सभापतिः बोधनारायण श्रेष्ठः अज्ञापयत्। सुनसरी जनपद प्रशासन कार्यालयेन दशसु स्थानीय स्तरेषु अनिश्चितकालिक निषेधाज्ञा क्रियान्विता अस्ति। स्थानीय प्रशासनाधिनियमस्य अनुसारेण ह्य रात्रौ नववादनात् अपरसूचनायाः प्रकाशनं यावत् निषेधाज्ञा क्रियान्विता अस्ति। प्रमुख जनपदाधिकारिणा ईश्वरी प्रसाद आर्यालेन हस्ताक्षरितायां विज्ञप्तौ निषेधाज्ञायुते क्षेत्रे मेलायाः सभायाः जनसम्मर्दस्य च कृते निषेधो विहितोऽस्ति इति ज्ञापितं वर्तते। प्रधानमन्त्रिणा बालेन्द्र शाहेन सुनसरी जनपदे सम्प्रत्येव घटिता घटनातया सृष्टं समाहूय पूर्णां परिस्थितिं प्रति दुःखं प्रकटितमस्ति। सामाजिक सञ्जालस्य माध्यमेन प्रधानमन्त्रिणा एवं ज्ञापितं वर्तते। रासोपा दलेन नेपाली समाजस्य बहुलवादी संस्कृतेः पारस्परिकैकतायाः सामाजिक सद्भावस्य च भञ्जनत्वेन कथं विधापि गतिविधयो न कर्तुं नागरिकाः नागरिकाणां नेतारः सम्बद्ध पक्षाश्च आहूताः वर्तन्ते। दलस्य सभापतिना रवि लामिछानेभिदेन प्रकाशितायां विज्ञप्तौ सुनसरी प्रभृतिषु देशस्य पूर्वदिशु जनपदेषु सम्प्रत्येव घटिता संवेदनशीला दुःखदा च घटनातया सृष्टं समाहोपूर्णां परिस्थितिं प्रति स्वस्य गभीरं ध्यानाकर्षणं सम्भूतमस्ति इति ज्ञापितं वर्तते। दलसभापतिना रवि लामिछाने इत्यनेन प्रकाशितायां विज्ञप्तौ घटनायां निपत्य त्यक्त प्राणान् जनान् प्रति श्रद्धाञ्जलिम् अर्पयता शोकाकुल परिवारजनेषु समवेदना प्रकटिता वर्तते। कर्णाली प्रदेशस्य मुख्यमन्त्रीपदे नेकपा संसदीय दलस्य नेता मंगलबहादुर शाही नियुक्तोऽस्ति। प्रदेश प्रमुख यज्ञराज जोशी ह्यो नेपालस्य संविधानस्य अनुसारेण शाही इत्यमुं मुख्यमन्त्रीपदे नियुक्तवान्। नेकपा संसदीय दलस्य नेतुः शाही इत्यस्य मुख्यमन्त्रीपदे नियुक्त्यर्थं नेपाली कम्युनिष्ट दलस्य चतुर्दशभिः नेकपा एमाले दलस्य दशभिश्च प्रदेशसभा सदस्यैः समर्थनं विहितमस्ति। अत्रान्तरे लुम्बिनी प्रदेश सर्वकारात् नेपाली कांग्रेस दलं बहिर्भूतमस्ति। सर्वकाराय प्रदत्तं समर्थनं प्रत्यावर्त्य नेपाली कांग्रेस दलस्य पञ्चभिर्मन्त्रीभिः त्यागपत्रं प्रदत्तमस्ति। नेपाली कांग्रेस दलस्य सचेतक पदेन धनलक्ष्मी श्रेष्ठेन मुख्यमन्त्रिणः चेतनारायण आचार्यस्य समक्षं सर्वकाराय प्रदत्तस्य समर्थनस्य प्रत्यावर्तनेन सहितं मन्त्रिणां त्यागपत्रं प्रस्तुतमस्ति। नेपाली कांग्रेस दलस्य सर्वकारात् बहिर्भवनेन सैव सम्प्रति लुम्बिनी प्रदेशे नेकपा एमाले दलस्य नेपाली कम्युनिष्ट दलस्य च संयुक्त सर्वकारस्य संघटनाय पूर्व कार्यं चायमानमस्ति। अद्य ज्ञानदातारं गुरुं प्रति श्रद्धा भक्ति प्रकचय गुरुपूर्णिमा दिवसः समायोज्यते। प्राचीनकालस्य गुरुकुल शिक्षायाः प्रारब्धेऽस्मिन् दिवसे विद्यार्थिनः विद्या विनय शिष्टता प्रदर्शन पुरस्सरं कर्तव्याकर्तव्ये प्रशिक्ष्य उज्ज्वल भविष्यस्य मार्गद्रष्टारं गुरुं यथोचितं सम्मानयन्ति। गुरुः उपदेशं विना जनमानसे यथार्थ ज्ञानं न समुदेति इत्यतः गुरुः ब्रह्म विष्णु महेश्वरवत् सम्मान्यो भवतीति शास्त्रेषु गुरुर्महत्वं वर्णितं वर्तते। गुरुपूर्णिमायाः अवसरे अद्य विशेषतः शिक्षण संस्थासु विविधाः कार्यक्रमाः आयोज्यन्ते। व्यास जयन्ती च ज्ञाननिधिं व्यासं प्रपूज्य आयोज्यते। राष्ट्रपतिः रामचन्द्र पौडेलः लोकतान्त्रिक आन्दोलनस्य योद्धु नेपाली कांग्रेस दलस्य नेतृश्च पूर्वोपप्रधानमन्त्रिणश्च गोपाल मान श्रेष्ठस्य निधनस्य सूचनया आत्मना दुःखम् अनुभूतमस्तीति कथयति। राष्ट्रपतिः पौडेलः देशे लोकतन्त्रस्य स्थापनायै पुनस्थापनायै च विहितानां संघर्षाणां कठिन दिनेष् श्रेष्ठेन प्रापितं योगदानं सदैव स्मरणीयमस्तीति अगतत्। नेपाली कांग्रेस दलस्य सभापतिना गगन कुमार थापा भिदेन दलस्य निवर्तमानेन सभापतिना पूर्व प्रधानमन्त्रिणा शेरबहादुर देउवा भिदेन च पूर्वोपप्रधानमन्त्रिणः गोपाल मान श्रेष्ठस्य निधनस्य समाचारेण आत्मना स्तब्धतानुभूते इति उक्तं वर्तते। नेतु श्रेष्ठस्य जावलाखिलवर्तिनी हेलियस चिकित्सालये उपचारस्य क्रमे ह्य निधनं सम्भूतमस्तीति नेपाली कांग्रेस दलेन ज्ञापितं वर्तते। नेतु श्रेष्ठस्य शवः अद्य बुधवासरे सानेपावर्तिनी दल केन्द्रीय कार्यालये श्रद्धाञ्जलये स्थापयिष्यते। ततः शवयात्रया सह पशुपति आर्यघट्ट क्षेत्रे दह संस्काराय नेष्यते इति दल कार्यालयेन ज्ञापितं वर्तते। सूचना संचार मन्त्री डाक्टर विक्रम तिमिलसिन्हा निगदति आवासीयतर नेपाली जनानां ज्ञान शिल्प प्रविधि सञ्चितीनां स्वदेशस्य विकासेन योजयित्वा सर्वकारेण नीतिगत विधिगत व्यावहारिक केन्द्राय प्राथमिकता दत्ता अस्ति। ह्य सूचना संचार मन्त्रालय आवासीयतर नेपाली संघस्य पदाधिकारीभिः सह विहितायां वार्तायां संचार मन्त्री डाक्टर तिमिलसिन्हा सर्वकारेण देशे निवेशन मैत्री वातावरणं निर्मातुम् आवश्यक पूर्वाधारस्य सुधारस्य च कार्यम् अग्रे वर्धमानमस्तीति अवोचत्। मन्त्री डाक्टर तिमिलसिन्हा विदेशे वर्तमानानां नेपालीनाम् अनुभवं निवेशनञ्च राष्ट्र निर्माणाय उपयोक्तुं सर्वकारः तत्परोऽस्तीति उक्तवान् आसीत्। भारतस्य उत्तराखण्ड प्रदेशस्य पिथौरागढ़ जनपदे धौलीगंगा जलविद्युत परियोजनायाः बन्धनस्य द्वारस्य उद्घाटनं विधीयमानमस्तीत्यतः महाकाली नद्यः तटीय क्षेत्रस्य नागरिकान् सावधानताम् अवलम्बितुम् अनुरुद्धमस्ति। दार्चुला जनपद प्रशासन कार्यालयेन एकां सूचनां प्रकाश्य सावधाना भवितुम् अनुरुणत्। पर्सा जनपदस्य नारायणी चिकित्सालये चिकित्सकानां विहितस्य ताडनस्य घटनायाः विरोधी आन्दोलनरतै चिकित्सकै आराश्रम बहिरंग सेवा पिहिता वर्तते। चिकित्सकानां छात्र संघटनेन नेपाल चिकित्सक संघेन सर्वविधेषु चिकित्सालयेषु बहिरंग सेवां पिधाप्य आकस्मिक सेवा एव सञ्चालयिष्यते इति सूचितं वर्तते। श्रावण मासस्य नवमी दिवसे बीरगंजवर्तिनी नारायणी चिकित्सालये कार्यरतेषु चिकित्सकेषु स्वास्थ्यकर्मीषु च विहितायां सांघातिक आक्रमणस्य चिकित्सालये विहितस्य त्रोटनस्य घटनायां संघेन दोषिणां दण्डनस्य याचना विहिता वर्तते। इति समाचारः।